एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानाय प्रतिनिधिसभायाः प्रदेशसभानाम् च सदस्यानाम् निर्वाचनाय नेकपा माओवादी केन्द्रेण नेकपा एकीकृत समाजवादी दलेन राष्ट्रिय प्रजातन्त्र दलेन च ह्यस्वस्व नैर्वाचनिकम् घोषणापत्रम् सार्वजनीकृतम् वर्तते। नेकपा माओवादी केन्द्रेण सार्वजनिकृते प्रतिबद्धता पत्रे प्रत्यक्ष निर्वाचितस्य कार्यकारी राष्ट्रपतेः शासकीय स्वरूपस्य निर्वाचन प्रणाल्याः संघीय संरचनायाश्च विषयाणाम् परिवर्तनाय संविधानम् संशोधयितुम् बलम् दत्तमस्ति। माओवादी केन्द्रेण उच्चस्तरीय सम्पत्यनुसन्धानायोगस्य संघटनम् 47-2000 वैक्रमाब्दस्य पश्चात् सार्वजनिक पदधारिणाम् जनानाम् सम्पत्यनुसन्धानम् च प्रतिबद्धता पत्रे उल्लिखिते स्तः। प्रतिबद्धता पत्रे काष्ठमण्डप उपत्यकायाम् मोनोरेल मेट्रो रेलयान संचालनस्य काष्ठमण्डप उपत्यकायाः बागमती विष्णुमती धोबीखोला मनोहरा नदीनाम् तटमार्गेषु मोनोरेल यान मार्ग निर्माण कार्यस्य अग्रे प्रवर्धनस्य च योजनाः कार्यक्रमाश्च उल्लिखिताः सन्ति। चक्रपथम् परितः बुढानीलकण्ठ सांगा थानकोट सांगा खण्डयोश्च मेट्रो रेल परियोजनायाः अग्रे वर्धनमपि प्रतिबद्धता पत्रे उल्लिखितमस्ति। एवमेव पोखरा विराटनगर बुटवल जनकपुर नेपालगंज प्रवृत्तिषु मुख्य नगरेषु मेट्रो मोनोरेल ट्रलियान प्रवृत्तिनाम् आधुनिक सार्वजनिक यातायात साधनानाम् संचालनात्मकम् कार्यम् योजनाबद्ध रूपेण प्रारप्स्यते इति माओवादी केन्द्रेण सार्वजनिक कृते प्रतिबद्धता पत्रे उल्लिखितम् वर्तते। दलस्य प्रतिबद्धता पत्रस्य सार्वजनिकरणस्य कार्यक्रमम् सम्बोधयन् नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः अवोचत् प्रत्यक्ष निर्वाचित कार्यकारी राष्ट्रपतिः पूर्ण समानुपातिक निर्वाचन प्रणाली च माओवादी दलस्य मूल कार्यसूची वर्तते, या च संविधान संशोधनस्य माध्यमेन अग्रे वर्धयितुम् शक्यते। नेकपा एकीकृत समाजवादी दलस्य केन्द्रीय कार्यालये आयोजिते कार्यक्रमे महासचिवेन डाक्टर बेदुराम भूषालेन सहिताः नेतारः नैर्वाचनिक घोषणापत्रम् सार्वजनिकम् व्यदधुः। घोषणापत्रे विद्यमाना निर्वाचन प्रणाली व्ययसाध्या आडम्बर पूर्णा च अस्तीति कारणेन एतस्याः सुधाराय बलम् दत्तमस्ति। नैर्वाचनिक घोषणापत्रे एकीकृत समाजवादी दलेन भ्रष्टाचार मुक्तम् सर्वकारम् निर्मातुम् प्रतिबद्धता ज्ञापिता वर्तते। एवमेव देशस्य पूर्व भागतः पश्चिम भागम् यावत् विपुलाकृतेः जलसरण्याः निर्माणम् विदेशात् प्रत्यावृतेभ्यो युवभ्य कृषि व्यवसाय आकर्षणाय 10 लाख रूप्यक पर्यन्तम् वृद्धिधनरहितस्य ऋणस्य प्रदानात्मिकायाः व्यवस्थायाः कृते अभियानस्यैव सञ्चालनम् च घोषणापत्रे उल्लिखिते स्तः। ह्यः एव राष्ट्रिय प्रजातन्त्र दलेनापि नैर्वाचनिक घोषणापत्रम् सार्वजनिकृतम् वर्तते। काष्ठमण्डपे आयोजिते कार्यक्रमे राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष राजेन्द्र लिङ्गदेन निर्वाचन लक्षितम् दलस्य प्रतिबद्धता पत्रम् सार्वजनिक कुर्वन् राष्ट्रिय प्रजातन्त्र दलेन एकस्याः व्यक्तेः कार्यकाल द्वयाद् अधिकावधौ दलाध्यक्ष प्रधानमन्त्री प्रवृत्तिषु कार्यकारी पदेषु आसीनतायाः निषेधनत्वेन विधिर्निर्मास्यते इत्यभासत। लिङ्गदेन अभिभावकीय संस्थाया रूपेण राजसंस्था जनतया प्रत्यक्ष निर्वाचित कार्यकारी प्रधानमन्त्री पूर्ण समानुपातिक संसद च स्वदलस्य मुख्य कार्यसूची अस्तीति अवोचत। प्रमुख प्रतिपक्षिणा नेकपा एमाले दलेन अद्य एतत् विक्रम वर्षीयाय प्रतिनिधिसभायाः प्रदेशसभानाम् च सदस्यानाम् निर्वाचनाय घोषणापत्रम् सार्वजनिक क्रियते। दलस्य केन्द्रीय सदस्यस्य प्रचार प्रकाशन विभागस्य उपप्रमुखस्य च विष्णु रिजालस्य अनुसारेण होटल याग एण्ड यति अतिथि सदने घोषणापत्रम् सार्वजनिकम् विधीयमानम् वर्तते। घोषणापत्रम् आधृत्य अध्यक्षस्य केपी शर्मा ओलिनः प्रत्यक्ष तर्क वितर्क विमर्शनस्य कार्यक्रमः निर्धारितो वर्तते। आसन्न निर्वाचनस्य प्रयोजनाय प्रत्याशिभिः अस्यैव कार्तिकस्य सप्तदश दिवसात् मार्गशीर्ष मासस्य प्रथमं दिवसं यावत् प्रचार प्रसारयोः अन्तर्गतानि जनप्रदर्शनं जनसभा कोणसभा च कर्तुं शक्यन्ते इति निर्वाचनायोगेन स्पष्टीकृतं वर्तते। आयोगेन एतद् विक्रमवर्षीय निर्वाचनाचार संहितायाः अन्तर्गतं जनप्रदर्शनं जनसभा कोणसभा च कर्तुं शक्यन्ते इति स्पष्टीकृतमस्ति। आचार संहितायाः त्रयोदश प्रकरणे प्रत्याशिनाम् अन्तिम नामावल्याः प्रकाशनानन्तरं मतदानस्य दिनात् सप्तदश दिनेभ्यः पूर्वस्मात् दिनादेव निर्वाचनस्य प्रचार प्रसारयोः अन्तर्गतानि जनप्रदर्शनं जनसभा कोणसभा च कर्तुं शक्यन्ते। संचार माध्यमैः स्वस्य निर्वाचन सम्बद्धानां सामग्रीणां प्रकाशनं प्रसारणं च कर्तुं शक्येते इति व्यवस्थापिता स्थिति आयोगस्य प्रवक्त्रा शालिग्राम शर्मा पौडेलेन ह्यः प्रकाशितायं विज्ञप्तौ उल्लिखितमस्ति। आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य प्रयोजनाय निर्वाचनायोगेन प्रत्यक्षपक्षे श्वेतपृष्ठभूमौ रक्तरंगस्य समानुपातिकपक्षे श्वेतपृष्ठभूमौ कृष्णरंगस्य च चिह्नयुतस्य मतपत्रस्य व्यवस्था विहितास्ति। प्रत्यक्षपक्षे प्रतिनिर्वाचन क्षेत्रं निर्धारितानां प्रत्याशिनां दलानां वा निर्वाचन चिह्नानि एव मतपत्रेषु भविष्यन्ति। समानुपातिक निर्वाचन प्रणाल्याः पक्षे प्रतिनिधिसभायाः कृते सप्तचत्वारिंशता निर्वाचन चिह्नैः युतं मतपत्रं प्रयुक्ष्यते। निर्वाचनायोगेन आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमाने निर्वाचने सुसूचित मतदातृणां सहभागितां प्रवर्ध्य स्वीकृत मतानां प्रतिशतं वर्धयितुम् अस्वीकृत मतानां प्रतिशतं न्यूनीकर्तुं च एतद्वारा मतदातृ शिक्षा कार्यक्रम सक्रियतया सञ्चाल्यते। आयोगेन स्वास्थ्य स्वयंसेविकाः परिचाल्य निर्वाचनाय निर्मिताः प्रचार सामग्रीः कृत्रिम मतपत्राणि च मतदातृणां गृहाणि प्राप्य मतदातृ शिक्षां प्रदातुं पूर्वकार्यं विहितमस्ति। निर्वाचनाय निर्मिताः एतादृशाः प्रचार प्रसार सामग्र्यः कृत्रिम मतपत्राणि च सर्वान् जनपदान् प्रेषितानि सन्तीति आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेलः ज्ञापयति। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली भासते आगामी निर्वाचनं परिवर्तनस्य इच्छुकया शक्त्या ज्येष्यते। झापा जनपदस्य कमलग्रामपालिकायां ह्य आयोजितां नैर्वाचनिक मेलां सम्बोधयन् अध्यक्ष ओली अगदत् देशे स्थिर विकासाय समर्थश्च सर्वकार आवश्यकोऽस्ति आवश्यकतेयं निर्वाचनात् पूरयिष्यते। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की आन्दोलनात् प्राप्तस्य परिवर्तनस्य उपलब्धिं संरक्षितुं संविधानस्य विरोधितत्वं पराजेतुं च सत्तारूढ गठबन्धनं निर्मितमस्तीति स्पष्टीकरोति। सुनसरी जनपदस्य वरा क्षेत्र नगरपालिकायां लोकतान्त्रिक वाम गठबन्धनेन ह्य आयोजिते कार्यक्रमे मन्त्री कार्की अभाषत विपन्नतायाः वृत्तिहीनतायाश्च समस्यानां समाधानाय सर्वकारेण ध्यानं केन्द्रीकृतं वर्तते। इति समाचाराः।